श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथैकोनत्रिंशोऽध्यायः प्रणयगीत गोप्य ऊचुः मैवौ विभोर्हति भवान् गदितुन्द्रुशंसम् सन्त्यज्य सर्वविषयांस्तव पादमूलम् भक्ता भजस्व दुरवग्रहमा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदात्वयोक्तम् अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा कुर्वन्ति हि त्वयि रतिं कुशलास्वात्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैः किं तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशामृतान् त्वयि चिरादरविन्दनेत्र चित्तं सुखेन भवता परुतं गृहेषु यन्निर्विशत्युतकरावपि गृह्यकृत्ये पादौ पदन्न चलतस्तव पादमूलात् यामः कथं व्रजमथो करवाम सैचाङ्गनस्त्वदधरामृतपूरकेण हासावलोककलगीतजरुच्छयाग्निं नो चेद्वयौ विरहजाग्न्युपयुक्तदेहा ध्यानेन यामपदयोः पदवीं सखेते यर्यम्बुजाक्ष तव पादतलं रमाय दत्तक्षणं क्वचिदरण्यजनप्रियस्य अस्प्राक्ष्मतत्प्रभृतिनान्यसमक्षमङ्गस् स्थातुं त्वयाभिरमिता बत पारयामः श्रीर्यत्पदाम्बुजरजश्चकमेतुलस्य लब्ध्वापि वक्षसि पदं किल वृत्यजुष्टम् यस्यास्ववीक्षणकृतेर्यसुरः प्रयासस्तद्वद्वयै च तव पादरजः प्रपन्नाः तन्नः प्रसीद वृजिनार्दनतेऽङ्घ्रिमूलम् प्राप्ता विसृज्य वसतिस्त्वदुपासनाशाः त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषणदेहि दास्यम् वीक्ष्यालकावृतमुखन् తవ కుండల శ్రీ గండస్థలాధరసుధం హసితావలోకం దత్తాభయై చ భుజదండయుగం విలోక్య వక్షశ్రియైకరమణై చ భవామదాస్యః కాస్త్ర్యంగతే కలపదాయతమూర్ఛితేన సమ్మోహితార్య చరితాన్న చలే త్రిలోక్యాం త్రైలోక్య సౌభగమిదై చ నిరీక్ష్య రూపై యద్గోద్విజద్రుమ మృగాః పులకాన్య బిభ్రన్ వ్యక్తం భవాన్ వ్రజ భయార్తిహరోభిజాతో దేవో యథాది పురుషస్ సురలోక గోప్తా తన్నో నిధేహి కర పంకజమార్తబంధో తప్తస్తనేషు చ శిరస్ సుచకింకరీణ ఓ సర్వం శ్రీ కృష్ణార్పణమ